హవామహి కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణాం బ్రహ్మణస్పత ఆన శృణ్వన్నోదిభిశీలసాదనం ప్రణో దేవీ సరస్వతీ వాజేభిర్వాజినీవతి ధీరామవిత్రయవతో గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం. ఓం నమో భగవతే రుద్రాయ. ఓం నమస్తే రుద్రమన్యవ ఉతోత ఇషవే నమః. నమస్తే అస్తు ధన్వనే బాహుభ్యాముసతే నమః. యాతయిషు శివతమా శివం బభూవతే ధనుః. శివాచరవ్యాయాతవతయానో రుద్రమృఢయా. యాతే రుద్ర శివా తనోరఘోరా పాపగాశినీ. తయానస్తను వాచంతమయా గిరిశంతాభిజాగసీః. యామిషుం గిరిశంతహస్తేభిభక్ష్యస్తవే. శివాంగిరిత్రతాం కురుమాధిగుంసే పురుషం జగత్. శివే నవచసా త్వా గిరిశాచ్ఛా వదామసి. యథా నః సర్వమిజ్జగత యక్ష్మగుం సుమనా అసతే. అధ్యవోచదివక్తా ప్రథమో దేవ్యోభిషక్. అహే గచ్చ సర్వాంజంభయ సర్వాచ్చ యాతు ధాన్యః. అసువ్యక్తామ్రో అరుణ ఉత బభ్రత్సు మంగళః. యే చేమాగుం రుద్ర అభితో దిక్షుశ్రితాత్ సహస్రశో వైశాగుం హేడయీమహే. అసభ్యో వసర్పతి నీలగ్రీవో విలోహితః. ఉతైనం గోపా అదృశన్నదృశన్ను దహార్యః. ఉతైనం విశ్వా భూతాని సదృష్టో మృడయాతినః. నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీడుషేకే. అధోగే అస్య సత్వానోహం తేభ్యోగరం నమః. ప్రముంజ ధన్వనస్త్వముభయోరాత్నియోర్జ్యాం. యాచ్చ తేహస్త ఇషవపరాతా భగవో వప. అవతత్యదనుస్త్వగుంథకత్రాక్షశతేషుధే. నిషేద్య శల్యానాముగా శివో న సుమనాభవ. విజ్యం ధను కపర్దినో విశల్యో బాణవాగుం ఉత. అనేజన్నస్యేషవ ఆభురస్య నిశం గతిః. యాతే హేతిర్మే దుష్టమహస్తే బభూవతే ధనుః. తయాస్మాన్ విశ్వదత్వమయక్ష్మయా పరిభుజ. నమస్తే అత్వాయుధాయానాతతాయ దృష్టవేకే. ఉభాభ్యాముతతే నమో బాహుభ్యాం తవ ధన్మనే. పరితే ధన్మనో హేతిరస్మాన్ వృణక్తు విశ్వతః. అధోగ్యగిషుదిత్తవారే అస్మన్నిధేహితం. నమస్తే అస్తు భగవన్ విశ్వేశ్వరాయ మహాదేవాయ త్రింబగాయ త్రిపురాంధకాయ త్రికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుంజయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః. నమో హిరణ్యభాగవేసే నాజ్ఞే దిశాంచ పతగే. నమో నమో వృక్షేభ్యో హరికేశేభ్యః పశూనాం పతయే నమో నమః సత్పింజరాయత్విషీమతే పదీనాం పతయే నమో నమః బభ్లుషాయ వివ్యాధినేన్నానాం పతయే నమో నమః హరికేశాయోపవీతినే పుష్టానాం పతయే నమో నమో భవత్య హేత్యై జగతాం పతయే నమో నమో రుద్రాయ తతావినే క్షేత్రాణాం పతయే నమో నమః సూతాయ హంత్యాయ వనానాం పతయే నమో నమో రోహితాయ స్తపతయే వృక్షాణాం పతయే నమో నమో మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో భువంతయే వాలివత్స్కృతాయౌషధీనాం పతయే నమో నమ ఉచ్చైర్ఘోషాయ క్రందయతే పత్తీనాం పతయే నమో నమ కృష్ణవేతాయ ధావతే సత్వనాం పతయే నమః నమస్తగమానాయ నివ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమ కకుభాగ నిషంగిణేగేస్తేనానాం పతయే నమో నమో నిషంగిణగిషుధిమతే తస్కరాణాం పతయే నమో నమో వంజతే పరివంజతే తాయూనాం పతయే నమో నమో నిచేరవే పరిచరాయారణ్యానాం పతయే నమో నమః త్రికావిభ్యో జిగాగుంధద్భ్యో ముష్ణదాం పతయే నమో నమో శ్రీమద్భ్యో నక్తం జరభ్య ప్రగ్రంథానాం పతయే నమో నమ ఉష్ణీషిణి గిరిచరాయ కులుంజానాం పతయే నమో నమగిషు మద్భ్యో దన్వావిభ్యశ్చ వో నమో నమ ఆతన్వానేభ్య ప్రదిదధానేభ్యశ్చ వో నమో నమ ఆయచ్చద్భ్యో విసృజద్భ్యశ్చ వో నమో నమోస్యద్భ్యో విద్యద్భ్యశ్చ వో నమో నమ ఆసీనేభ్య శయానేభ్యశ్చ వో నమో నమ స్వపద్భ్యో జాగ్రభ్యశ్చ వో నమో నమ తిష్టద్భ్యో దావద్భ్యశ్చ వో నమో నమ సభాభ్య సభాపతిభ్యశ్చ వో నమో నమో అశ్వేభ్యో అశ్వపతిభ్యశ్చ వో నమః నమ ఆవ్యాధినీభ్యో వివిధ్యందేభ్యశ్చ వో నమో నమ ఉగణాభ్య త్రిగుంహతేభ్యశ్చ వో నమో నమో గృత్సేభ్యో గృత్సపతిభ్యశ్చ వో నమో నమో వ్రాతేభ్యో వ్రాతపతిభ్యశ్చ వో నమో నమో గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో విరూపే భ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో మహద్భ్యః క్షుల్లకేభ్యశ్చ వో నమో నమో రథిభ్యో రథేభ్యశ్చ వో నమో నమో రథేకేభ్యో రథపతిభ్యశ్చ వో నమో నమ సేనాభ్యసేనానిభ్యశ్చ వో నమో నమః క్షత్రభ్యసంగ్రహేతృభ్యశ్చ వో నమో నమ తక్షభ్యోరథకారేభ్యశ్చ వో నమో నమ కులాలేభ్య కర్మారేభ్యశ్చ వో నమో నమ పుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమ గిషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయుభ్యశ్వనిభ్యశ్చ వో నమో నమ శ్వభ్యశ్వపతిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః చర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కపర్దినే చ యుక్తకేశాయ చ నమః సగత్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిపివిష్టాయ చ నమో మేదుష్టమాయ చేషుమతే చ నమో హ్రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షీయసే చ నమో వృద్ధాయ చ సంవత్సరే చ నమో అగ్ర్యాయ చ ప్రథమాయ చ నమ ఆశవే చాచిరాయ చ నమ శీఘ్రయాయ చ శేభ్యాయ చ నమ ఓర్వ్యాయ చ వత్సన్యాయ చ నమ శ్రోతస్యాయ చ ద్వేప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్టాయ చ నమ పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ పగల్భాయ చ నమో జగన్యాయ చ బుద్ధ్నియాయ చ నమః సోభ్యాయ చ ప్రతిసద్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వద్యాయ చ కళ్యాయ చ నమః శ్లోక్యాయ చ అవధాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేణాయ చ ఆశురథాయ చ నమః శూరాయ చ వవిందతే చ నమో వర్మిణే చ వరోధినే చ నమో విల్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ అనన్యాయ చ నమో దృష్ణవే చ ప్రమృషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగిణే చేషుతిమతే చ నమః తీక్ష్ణేశవే చ యుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ పథ్యాయ చ నమః కాట్యాయ చ నీప్యాయ చ నమః సోద్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైశంతాయ చ నమః కోప్యాయ చ వట్యాయ చ నమో వర్ష్యాయ చ వర్ష్యాయ చ నమో మేఘ్యాయ చ విద్యుత్యాయ చ నమః ఈద్రియాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మ్యాయ చ నమో వాస్తవ్యాయ చ వాస్తుభాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః తామ్రాయ చ అరుణాయ చ నమః జంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమః అగ్రే పథాయ చ దూరే పథాయ చ నమో హంత్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమః తారాయ నమః శంభవే చ మయో భవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమః తీర్థ్యాయ చ కోద్యాయ చ నమః పాద్యాయ చ భాద్యాయ చ నమః ప్రతరణాయ జోత్తరణాయ చ నమః ఆతాద్యాయ చ లాద్యాయ చ నమః షష్ప్యాయ చ భేన్యాయ చ నమః శ్రీకత్యాయ చ ప్రవాక్యాయ చ నమగిరిణ్యాయ చ ప్రపథ్యాయ చ నమః కిగుంశిలాయ చ క్షగణాయ చ నమః కపర్దినే చ పులస్తయే చ నమో గోష్ట్యాయ చ గృహ్యాయ చ నమః తల్ప్యాయ చ గేహ్యాయ చ నమః కాట్యాయ చ గహ్వరేష్ఠాయ చ నమో హృదయాయ చ నివేష్ట్యాయ చ నమః pagundhavyaya jarajasyaya janamachyashyaya jaharityaya janamo lopyaya jolapyaya janama urvyaya jasurvyaya janama parnyaya japannajadyaya janamo paguramanaya javignate janama akhidate prakhidate ca namo vatkirikebhyo devanagam hrudagebhyo namo vikshinakebhyo namo vichinvatkebhyo nama anirhatebhyo nama ami vatkebhyah drape andhasaspade daridranilalokita esham purushanam esham pashunam mabher maromogesham kinchanamamate yate rudra shiva tano shiva vishwaha bheshaji shiva rudratya bheshaji tayano mrida jivaseke imagum rudraya tavase kapardineke kshayadviraya praparamahe matim yatha nashyamasadvipade chatushpate vishyam bushtam grame asminnanaturam mridano rudrotano mayaskrade kshayadviraya namasa vidhemate yacham cha yoscham anuragya jepida tadasya matava rudra pranito mano mahantamudamano advagam mana ukshantamudamana ukshitam mano vade pitaram motamataram priyamana tanuvo rudraririshaha manatto ketanaye mana ayushi mano goshu mano ashveshu dirishaha vedan mano rudrabhamito vader havishmanto namasa vidhemate arate gognamuta purushagne kshayadvairagyasum namasmete atto rakshajano adijadeva brochadajana sharmayachadvibaruha aha suhishrutangattadadanyuvanam mruganabhimamupahatramugram mridajaridre rudrattavano anyante atmannivabandhusena aha parino rudratya ghetat vrinakto paritveshasya durmadiraghayo avastira magavadjattana shvamidvatto kagyadanayaya mridaya medushtamashivadamashivona sumanabhava parame vriksha ayudhan nidaya krityam vadhanamacharabhinakam vibhradagahi vigirida vilokita namaste attu bhagavah yaste sahasragum hetayonyamasmannivabantutah sahasrani sahasrada bahuottavahetayah tasamishano bhagavaparachena mukhagrade sahasrani sahasrasho yerudra adibhumya teshagum sahasrayo jane vadanvani danmase asmin mahatyarnave endarikshe bhava adhe nilagrevachiti kandha sarva adaha kshamacharah nilagrevachiti kandha divagum lutra upasritah ye vrikshesu sastinjara nilagreva vilohitah ye bhuta namadipatayo vishigasakkabaddinah ye anneshu vividyante patreshu vivado janan ye padham padirakshaya airavridaya vyudah ye teerthani prajalanti srigavanto nishanginah ya etavandascha bhoyagumsascha disho rudravitastire
तेषा गुंसास्त्रयो जने वधन्वानि जन्मसि नमो रुद्रेभ्यो ये पृथिव्यां ये अन्तरिक्षे ये दिव्ये चावन्नं वातो वरुषमि च वस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रदेचेर्दशोदेचेर्दशोर्द्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयं विष्मो यश्च नो द्वेष्टितं भोजं भेदधामि त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मोक्षे यमामृतात् यो रुद्रो अग्रव्यो अप्सु य ओषधेषु यो रुद्रो विश्वा भुवना विवेद तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतं पाशा मृत्यो मर्त्याय हन्तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानां ग्रन्थिरधिरुद्रो मा विशान्तकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि समस्तुहि यः सुषुत्सु धन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशो मनसाय रुद्र नमोभिर्देवमसुरन्धुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगो शिवाभिमरुषणः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसे वावर्धन्तु वाङ्गिरः जुम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मे गानि च मे सानि च मे परोगुंषि च मे शरीराणि च मे जैष्ठ्यम् च म आधिपत्यम् च मे मन्युश्च मे भामश्च मेमश्च मेऽम्भश्च मे हेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्रिशिश्च मे क्रीडा च मे बोधश्च मे जातम् च मे जनिष्यमानम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे क्लुप्तम् च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे शं च मे मयश्च मे प्रियम् च मे नुकामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृतश्च मे विश्वम् च मे महश्च मे संविच्य मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे शीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयश्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सोषा च मे सुदिनम् च मे ऊर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सद्दिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रम् च मौद्भिद्यम् च मे रयिश्च मे रायश्च मे पुष्टम् च मे पुष्टिश्च मे विभुच मे प्रभुच मे बहुच मे भूयश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षितिश्च मे कोयवाश्च मेनम् च मे शुच्य मे प्रेहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्दाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्वा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे चिकताश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे शेषम् च मे त्रपुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च महापश्च मे विरुधश्च मोषधयश्च मे कृष्णपच्यम् च मे कृष्णपच्यम् च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तम् च मे वित्तिश्च मे भूतम् च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एवश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षम् च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्ध्वा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंसश्च मे रश्मिश्च मे दाभ्यश्च मे द्विपतिश्च म उपागुंसश्च मेऽन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्ते च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतुग्रहाश्च मे तिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्पतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्रीवतश्च मे हार्योजनश्च मे इद्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्ठियाश्च मे सृजश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे ऋषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्च म आधवनीयश्च म आग्नेयेर्धं च मे हविर्दानं च मे गृहाश्च मे सदश्च मे पुरोणाशाश्च मे पचताश्च मे वभृदश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सौर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरिरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृच्च मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रदन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाच्य मे दित्यौ हे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्य मे तुर्यौ हे च मे पष्ठवाच्य मे पष्ठौ हे च म उक्षा च मे वशा च मऋषभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताग्श्रोत्रै यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंसतिश्च मे त्रयोविगुंसतिश्च मे पञ्चविगुंसतिश्च मे सप्तविगुंसतिश्च मे नवविगुंसतिश्च म एकत्रिगुंसच्च मे त्रयस्त्रिगुंसच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंसतिश्च मे चतुर्विगुंसतिश्च मेऽष्टाविगुंसतिश्च मे द्वात्रिगुंसच्च मे षट्त्रिगुंसच्च मे चत्वारिगुंसच्च मे चतुश्चत्वारिगुंसच्च मेऽष्टाचत्वारिगुंसच्च मे वारश्च प्रसवश्च बीजश्च क्रतुश्च सुवश्च मूर्धा च यस्नीयश्चान्ध्यायनश्चान्त्यश्च भौ वनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्ता मदानि च गुंसि सद्विश्वे देवासोक्तवाच पृथिवीमातन्मा माहि गुंसेर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यातगुम् शुश्रूषेण्या मनुष्येभ्यस्तम् मा देव अवन्तु शोभायै पितरो नु मदन्तु शान्ति शान्ति शान्तिः ॐ तच्छय्योरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ओर्ध्वं जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो वृत्त्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येषानः यदन्नेनातिरोहते एतावानस्य महिमा अतोर्जायागस्य पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्ध्वदैः पुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् व्यक्रामत् साशनानशने अभि तस्माद्विराड जायताम् विराजो अधिपुरुषः स जातो अत्यरिच्यताम् पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्म इद्मः शरद्धविः सप्तास्यासन् परिदयः त्रिसप्त समिध कृताः देवा यद्यज्ञम् तन्वानाः अवध्नन् पुरुषम् पशुम् तै यज्ञम् वरेषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्ता साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वहुतः संहृतम् वृषदाज्यम् पशोगुस्तागुश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः ऋषस्सामानि जज्ञिरे छन्दागुंसि जज्ञिरे तस्मात् यजुस्तस्मादजायता तस्मादश्वा अजायन्ता एके चोभयादतः गावोह जज्ञिरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् यददुः कदिधा व्यकल्पयन् मुखम् किमस्य कौ बाहो का भूरोपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यः कृतः ऊरो तदस्य यद्वैश्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रस्याग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शेष्णोद्यौ समवर्तता पद्भ्याम् भूभिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन्यदास्ते धाता पुरस्ताद्यमुदा जहार शक्र प्रविद्वान् प्रदिशस्य तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सजन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्भ्यः सम्भूतः पृथिव्यैरथा च विश्वकर्मणः समवर्ततादे तस्य त्वष्टा विदद्रूपमेते तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये ऋचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे ह्रेष्यते लक्ष्मीस्य पत्न्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्याप्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः त्रिणा त्वा कृमे हन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणाहतः कृमीनागुम् राजा अप्येषागस्तपतिर्हतः अधो माताधो पिता अधो स्थूरा अधो क्षुद्रा अधो कृष्णा अधो श्वेताः अधो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्या धृतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आददामि तदा हि तत् घण्ठण्मृधे ॐ शान्ति शान्ति
ಭದ್ರಂ ಗರ್ಣೇಭಿ ಶೃಣುಯಾಮ ದೇವಾಃ ಭದ್ರಂ ಪಶ್ಯೇಮಾಕ್ಷಭಿರ್ಯಜತ್ರಾಃ ಸ್ಥಿರೈರಂಗೈಃ ಸುಷ್ಟುವಾಗುಂಸಸ್ತನೂಭಿಃ ವ್ಯಶೇಮ ದೇವಹಿತಂ ಯದಾಯುಃ ಸ್ವಸ್ತಿ ನಗೇಂದ್ರೋ ವೃದ್ಧಶ್ರವಾಃ ಸ್ವಸ್ತಿ ನಃ ಪೂಷಾ ವಿಶ್ವವೇದಾಃ ಸ್ವಸ್ತಿ ನಸ್ತಾಕ್ಷೋ ಅರಿಷ್ಟನೇಮಿಃ ಸ್ವಸ್ತಿ ನೋ ಬೃಹಸ್ಪತಿರ್ದಧಾತು ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿಃ ಓಂ ನಮಸ್ತೆ ಗಣಪತಯೆ ತ್ವಮೇವ ಪ್ರತ್ಯಕ್ಷಂ ತತ್ವಮಸಿ ತ್ವಮೇವ ಕೇವಲಂ ಕರ್ತಾಸಿ ತ್ವಮೇವ ಕೇವಲಂ ಹರ್ತಾಸಿ ತ್ವಮೇವ ಕೇವಲಂ ಹರ್ತಾಸಿ ತ್ವಮೇವ ಸರ್ವಂ ಖಲ್ವಿದಂ ಬ್ರಹ್ಮಾಸಿ ತ್ವಂ ಸಾಕ್ಷಾದಾತ್ಮಾಸಿ ನಿತ್ಯಂ ಹೃತಂ ವಚ್ಮಿ ಸತ್ಯಂ ವಚ್ಮಿ ಅವತ್ವಂ ಮಾಂ ಅವವಕ್ತಾರಂ ಅವಶ್ರೋತಾರಂ ಅವದಾತಾರಂ ಅವಧಾತಾರಂ ಅವಾನೋಚಾನಮವಶಿಷ್ಯಂ ಅವಪಶ್ಯಾತ್ತಾತ್ ಅವಪುರಸ್ತಾತ್ ಅವೋತ್ತರಾತ್ತಾತ್ ಅವದಕ್ಷಿಣಾತ್ತಾತ್ ಅವಚೋರ್ಧ್ವಾತ್ತಾತ್ ಅವಾಧರಾತ್ತಾತ್ ಸರ್ವತೋ ಮಾಂ ಪಾಹಿ ಪಾಹಿ ಸಮಂದಾತ್ ತ್ವಂ ವಾಂಗ್ಮಯಸ್ತ್ವಂ ಚಿನ್ಮಯಃ ತ್ವಮಾನಂದಮಯಸ್ತ್ವಂ ಬ್ರಹ್ಮಮಯಃ ತ್ವಂ ಸಚ್ಚಿದಾನಂದಾದ್ವಿತೀಯೋಸಿ ತ್ವಂ ಪ್ರತ್ಯಕ್ಷಂ ಬ್ರಹ್ಮಾಸಿ ತ್ವಂ ಜ್ಞಾನಮಯೋ ವಿಜ್ಞಾನಮಯೋಸಿ ಸರ್ವಂ ಜಗದಿದಂ ತತ್ತೋ ಜಾಯತೆ ಸರ್ವಂ ಜಗದಿದಂ ತತ್ತತ್ ತಿಷ್ಠತಿ ಸರ್ವಂ ಜಗದಿದಂ ತ್ವಯಿಲಯಮೇಷ್ಯತಿ ಸರ್ವಂ ಜಗದಿದಂ ತ್ವಯಿ ಪ್ರತ್ಯೇತಿ ತ್ವಂ ಭೂಮಿರಾಪೋ ನಲೋ ನಿಲೋ ನಭಃ ತ್ವಂ ಚತ್ವಾರಿ ವಾಕ್ಪದಾನಿ ತ್ವಂ ಗುಣತ್ರಯಾತೀತಃ ತ್ವಂ ಅವಸ್ಥಾತ್ರಯಾತೀತಃ ತ್ವಂ ದೇಹತ್ರಯಾತೀತಃ ತ್ವಂ ಕಾಲತ್ರಯಾತೀತಃ ತ್ವಂ ಮೂಲಾಧಾರಸ್ಥಿತೋಸಿ ನಿತ್ಯಂ ತ್ವಂ ಶಕ್ತಿತ್ರಯಾತ್ಮಕಃ ತ್ವಾಂ ಯೋಗಿನೋ ಧ್ಯಾಯಂತಿ ನಿತ್ಯಂ ತ್ವಂ ಬ್ರಹ್ಮ ತ್ವಂ ವಿಷ್ಣು ತ್ವಂ ರುದ್ರ ತ್ವಮಿಂದ್ರ ತ್ವಮಗ್ನಿ ತ್ವಂ ವಾಯು ತ್ವಂ ಸೂರ್ಯ ತ್ವಂ ಚಂದ್ರಮಾ ತ್ವಂ ಬ್ರಹ್ಮ ಭೂರ್ಭುವಸ್ಸು ವರೋಂ ಗಣಾದಿಂ ಪೂರ್ಣಮುಚ್ಚಾರ್ಯ ವರ್ಣಾದೀಂ ತದನಂತರಂ ಅನುಸ್ವಾರ ಪರತರಃ ಅರ್ಧೇಂದು ಲಸಿತಂ ತಾರೇಣ ರುದ್ಧಂ ಏತತ್ತವ ಮನುಸ್ವರೂಪಂ ಗಕಾರ ಪೂರ್ವರೂಪಂ ಅಕಾರೋ ಮಧ್ಯಮ ರೂಪಂ ಅನುಸ್ವಾರಸ್ಯಾಂತ್ಯರೂಪಂ ಬಿಂದುರುತ್ತರ ರೂಪಂ ನಾದಸಂಧಾನಂ ಸಗುಂಹಿತಾತ್ ಸಂಧಿಃ ಸೈಷಾ ಗಣೇಶ ವಿದ್ಯಾ ಗಣಕ ಋಷಿಃ ನಿಚೃದ್ಗಾಯತ್ರೇ ಛಂದಃ ಗಣಪತಿರ್ದೇವತಾ ॐ गं गणपतये नमः एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ते प्रचोदयात् एकदन्तं चतुर्हस्तं पाशमङ्गुशधारिणं रथं च वरदं हस्तैर्बिभ्राणं मूषकध्वजं रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाचसं रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् भक्तानुगं दिनं देवं जगत्कारणमच्युतम् आविर्भूतं च दृष्ट्यादो प्रकृते पुरुषात्परम् एवं ध्यायते यो नित्यं स योगी योगिनां वरः नमो व्रातपतये नमो गणपतये नमः प्रमदपतये नमस्ते अस्तु लम्बोदरायेकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये नमः एतदधर्वशीर्षं यो धेते स ब्रह्मभूयाय कल्पते स सर्वविघ्नैर्न बाध्यते स सर्वत्र सुखमेधते स पञ्चमहापापात् प्रमुच्यते सायमधेयानो दिवसकृतं पापं नाशयते प्रातरधेयानो रात्रिकृतं पापं नाशयते सायं प्रातप्रयुञ्जानो पापो पापो भवते सर्वत्राधेयानोपविघ्नो भवते धर्मार्थकाममोक्षं च विन्दते इदमधर्वशेष्यमजिष्यायन देयम् यो यदि मोहाद्दास्यदिध पापीयान् भवते सहस्रावर्तनाद्यं यं काममधीते तं तमनेन साधयेत् अनेन गणपतिमभिषिञ्चति स वाग्मी भवते चतुर्थ्यामनश्चपति स विद्यावान् भवते इत्यदर्वणवाक्यम् ब्रह्माद्यावरणं विद्याद्न विभेदि कदाचनेते यो दूर्वाङ्गुरैर्यजति स वै श्रवणोपमो भवते यो लाजैर्यजति स यशोवान् भवते समेधावान् भवते यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति यः साध्यस्समिद्भिर्यजति स सर्वं लभते स सर्वं लभते अष्टौ ब्राह्मणान् सम्यग्राहयित्वा सूर्यवर्चस्वे भवते सूर्यग्रहे महानद्यां प्रतिमासन्निधो वा जप्त्वा सिद्धमन्त्रो भवते महाविघ्नात् प्रमुच्यते महादोषात् प्रमुच्यते महाप्रत्यवायात् प्रमुच्यते स सर्वविद्भवति स सर्वविद्भवति य एवं वेदा इत्युपनिषत् भद्रं कर्णे विशृणुयाम देवाः भद्रं पश्ये माक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवागुंसस्तनुभिः व्यशेम देवहितं यदायुः स्वस्तिनगिन्द्रो वृद्धश्रवाः स्वस्तिनः पूषा विश्ववेदाः स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः स्वस्तिनो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः ॐ अग्निर्मे वाचिश्रितः वाग्हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि वायुर्मे के प्राणे श्रितः प्राणो हृदये हृदयं मयि अहममृते के अमृतं ब्रह्मणि सूर्यो मे चक्षुषि श्रितः चक्षुर्हृदये हृदयं मयि अहममृते के अमृतं ब्रह्मणि चन्द्रमा मे मनसि श्रितः मनोहृदये हृदयं मयि अहममृते के अमृतं ब्रह्मणि दिशो मे श्रोत्रे श्रिताः श्रोत्रगुं हृदये हृदयं मयि अहममृते के अमृतं ब्रह्मणि आपो मे रेतसि श्रिताः रेतो हृदये हृदयं मयि अहममृते के अमृतं ब्रह्मणि पृथिवी मे शरीरे श्रिताः शरीरगुं हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि ओषधि वनस्पतयो मे लोमसु श्रिताः लोमानि हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि पृथिव्यो मे बले श्रितः बलगुं हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि पर्जन्यो मे मूर्ध्नि श्रितः मूर्धा हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि ईशानो मे मन्यौ श्रितः मन्युर्हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि आत्मा म आत्मनि श्रितः आत्मा हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणि पुनर्म आत्मा पुनरायुरागात् पुनः प्राण पुनरागूतमागात् वैश्वानरो रश्मिभिर्मा वृधानः अन्तस्तिष्ठत्वमृतस्य गोपाः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति